सर्वेभ्यो नमस्कारः। अद्य सिद्धान्तकौमुद्यां समासप्रकरणस्य आरम्भः। एनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनिहे नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरण सिद्धांत कौमुदीयं विरच्यते। We'll start with an introduction, a general introduction to the samasa prakaran, before going into what the kaumudi says or what the sutrakara says. Samanyatah samasa vishaye jnatavyah kechana amshah bhavanti. Tadrishtva tatah kaumudi sthan amshan pathamah. सिद्धान्तकौमुद्याम् एतावत् पर्यन्तं समयाप्रकरणादारभ्य कारकप्रकरणपर्यन्तं दीक्षितैः सूत्राणि व्याख्यातानि सन्ति। आदौ संज्ञा, संज्ञाः परिभाषाः, ततः पञ्चसन्धिप्रकरणं, ततः शब्दप्रकरणं, ततः स्त्रीप्रत्ययप्रकरणं, कारकप्रकरणम् इत्येतानि समाप्य इदानीं पदानां परस्परं सम्बन्धः कथं भवति, कथं समासः कथं तद्धितः, समासः तद्धितश्च पदविधिः इति उच्यते। पदानां विधिः, पदस्य विधिः, पदविधिः, तस्य आरम्भः क्रियते दीक्षितैः। तत्र आदौ एकः एकं पारिभाषिकं पदं ज्ञातव्यं, वृत्तिः, समासवृत्तिः, तद्धितवृत्तिः इत्यादि अस्माभिः उच्यते। वृत्तिः नाम का? समुदायशक्त्या विशिष्ट एकार्थप्रतिपादिका वृत्तिः। समुदायशक्त्या, व्हेनेवर देयर इज अ ग्रुप ऑफ समथिंग, यू हैव इंडिविजुअल कॉम्पोनेंट्स, बट समटाइम्स व्हेन द कॉम्पोनेंट्स कम टुगेदर अदर देन द मीनिंग ऑफ द कॉम्पोनेंट्स, other than just what is the individual meaning of each component, there is a separate meaning which comes out from the samudaya. Vishishta ekartha pratipadika. Samudaya shaktya, yada anekasya, arthata dvayohu bahonamva padanam, it need not be just a pada, there are many components come together, there could be a special meaning which emerges out of the samudaya, and that is called vritti. So vritti is something which connects the components together. Say if you have a garland, you have separate pearls, and when you put them into a garland, say into a string, there is a string which is connecting them together. Okay. So vritti is something like that, which connects together different components and holds them together to have a separate stuff. Like pearls are different from the garland. Even though the component there is made up of individual pearls, there is something special in a garland. Okay, that is the Vishishta Ekartha, and that is given by a vritti. Sacha vritti hi panchadha bhavati. Vyakarane panchadha vrittayah uchyante. Krit siddhvritti hi, taddhita vritti hi, samasa vritti hi, ekashesha vritti hi, tathaiva sanadhyanta dhatu vritti hi. So these are the five kinds of vrittis which give a it's just like a process which gives out a special meaning. So krit vrittihi includes all kridantas. So kridantas are termed vritti. Pachati iti pachakaha. Pachati iti kriyapadena yaha arthaha vyaparaha फलव्यापारयोर्धातुः इति उच्यते, फलं व्यापारश्च। तद्भिन्नः कर्ता, वचनस्य कर्ता इत्यर्थः अपि कृद्वृत्त्या भासते। सो हियर् इन् पाचक द वृत्ति इस् गिविङ्ग् अ विशिष्ट एकार्थ विच् इस् देर् इस् पाक द व्यापार एण्ड् देर् इस् आल्सो द कर्ता आफ् द पाक। सो पाचकः इत्यनेन इति कृद्वृत्तिः, कृद्वृत्तेः उदाहरणम्। तद्धितवृत्तिः, so tadhitas are also termed vritti. Dasharathasya apatyam dasharathihi. So the
additional meaning of apatyartha. Dashagatha shabdate e pratyaha kriyate. Tatra apatyarthaha kashchit bhasate. Ataha iyam vrittihi. Tathita vrittihi. Dashagathasya apatyam. Ityarthaha dasharathi shabdena bhasate. Samasa vrittihi. Rajyaha purushaha raja purushaha. Rajan iti bhinnam padam. Purusha iti bhinnam padam. Raja purusha iti samudayena ekarthi bhavanam vyuktate. Ekashesha vrittihi. So, ekashesha is not a samasa. Ekasheshaha samasaha na bhavati. Matasa pitasa pitarau. Chate, I am ekasheshaha. So, we will know more about ekashesha later. Sapi eka vrittihi. Sanadhyanta dhatu vrittihi. Patitum icchati pi patishati. Sanadhyanta haiti. There are about 12 pratyayas. San, kyach, kamyach, kyap, etc. Which are used, which are added either to dhatus or pratipadikas in special senses. So all these together, they form a vritti which is called saradhyanta dhatu vritti. Yeah, I am sorry. I could not see the chat when I was having this screen sharing application. So I will... Prashna asti, vritti asti tatathasya samasasya. Ekasheshasya madhye kaha bhedaha iti. So samasa is where there are two words which are joined together. Samasanam samasaha. Dvayoho parayoho ekarthi bhavanam samasaha. Where you have two words which are joined together. Ekasheshe, there are two words in the vigraha. Matasa pitasa iti vigrahe padadvayam vidyate. Hintu ekaha eva shishyate. Ekashesha means one is left. The other is not heard at all. Sayeva ekasheshaha. It is samasasya ekasheshasya sayeva bhedaha. Ekasheshe ekameva padam shishyate samasetu padadvayam upi shruyate. So they are two separate vrittis. Any other questions? Ekasheshaha pitarau iti upte केवलं द्वौ पितरौ उच्यते वा अथवा माता पिता च उच्यते वा इति कथं ज्ञायते इति चेत् कॉन्टेक्स्ट यू टु नो इट बेस्ड ऑन द प्रकरण प्रकरणशः ज्ञायते मोस्टली पितरौ इत्यस्य माता पिता इति अर्थे एव प्रयोगः भवति बट स्टिल इट इज पॉसिबल देयर आर टू फादर्स इत्यर्थेपि पितरौ इत्यस्य प्रयोगः भवितुम् अर्हति प्रकरणात् ज्ञातव्यम् You should know from the context whether they are talking about parents or two fathers. Samasa samya nasti ekasheshe. Ekasheshaha samasaha na ityeva siddhantaha. Ekashesha is not a samasa. Ekashesha samasa is a prayoga which is heard which is wrong. Ekashesha samasaha iti uchyate saha dosha eva. Ekashesha is an apavada to dvandva samasa. There should have been dvandva, actually, when you, just like you do, Ramashta Lakshmanashta Rama Lakshmanam. There should have been Matacha Pitacha, Mata Pitarau. Mata Pitarau ityapi prayogaha asti. Dvandva samase krute Mata Pitarau iti prayogaha bhavati. Ekasheshe krute pitarau ityeva. Kintu ekasheshaha samasaha na. Ekashesha is not a samasa. Anyani udaharanani ekasheshasya va bahuni santi. There are many cases where we use ekashesha. Anywhere where you have a pullinga and strilinga. Say hamsashta, hamsicha, hamsau iti uchyate. And you have bhataacha, svatacha, bhatarau. Also, yuyamcha, vayamcha. If you have you and us, we say it as vayam. Yuyam cha vayam cha vayam ityeva sheshaha. Sopi eka sheshaha. Saha cha ramas cha tau iti uchyate. Sopi eka sheshaha. There are lot of examples of eka shesha. You use eka shesha very widely without even realizing that it is eka shesha. Vigraha. Vrittihi vigraha. Iti they go together always. Vrittyarthava bodhakam vakyam vigraha. Yena vakyena vrittehe arthaha gammete saha vigraha. In all these cases, we saw an example. I said, pachati iti pachakaha. Pachakaha iti vrittihi, sadvrittihi. Tasya arthavivaranam diyate pachati iti. एवं राजपुरुषः इति वृत्तिः समासवृत्तिः तस्य अर्थविवरणं दीयते राज्ञः पुरुषः इति तद् सः विग्रहः सो विग्रह इज अ लाइन व्हिच ट्राइज टू एक्सप्लेन द मीनिंग ऑफ अ वृत्ति सो वी आर फेमिलियर विथ विग्रह ओनली फॉर समास समासे एव विग्रहवाक्यं भवति इति कश्चन भ्रमः विद्यते समासे एव विग्रहः इति नास्ति सर्वासु वृत्तिषु विग्रहवाक्यं भवति पठितुम् इच्छति पिपठिषति पिपठिषति इति वृत्तिः पठितुम् इच्छति इति तस्याः विग्रहः सो विग्रह इज सीन इन ऑल केसेस इन ऑल इंस्टेंसेस ऑफ वृत्ति वी सी विग्रह इवन दो इट इज पॉपुलरली एसोसिएटेड विथ समासेस एक्चुअली इट इज वृत्त्यर्थावबोधकं वाक्यं नॉट जस्ट समासार्थावबोधकं वाक्यं सर्वासु वृत्तिषु तस्य अर्थं द्योतयितुं तत्किञ्चन वाक्यं भवति तदेव विग्रहः इति उच्यते सो विग्रहवाक्यावयव पदार्थेभ्यः परः अन्यः योऽयं विशिष्टः एकार्थः तत्प्रतिपादिका वृत्तिः सो वृत्ति इज एक्साक्टली दट विग्रहवाक्य अवयव पदार्थाः देर आर सर्टन अर्थस् फॉर ईच पद ऑफ द विग्रह इफ यू हैव थ्री वर्ड्स इन अ विग्रह देर इज अ मीनिंग फॉर ईच सो तद्भिन्नः विशिष्टः एकार्थः वृत्त्या बोध्यते सो दिस इज द स्पेशलिटी ऑफ वृत्ति is that it gives that ekartha, a special meaning emerges out of the vritti. That is why we do vritti. That is why vritti happens. So, vritti and vigraha are both terms which apply to all sets of five. Kridvrittihi, tadhitavrittihi, samasavrittihi, ekashesavrittihi, sanadhyanta dhativrittihi. Irani, tasu vrittishu anyatamaha samasaha. समासः नाम कः इति किञ्चित् द्रष्टव्यम् समसनम् समासः समासपदस्य निष्पत्तिः भवति समसनम् इति किन्तु किं नाम समसनम् इति चेत् अनेकस्य पदस्य एकपदीभवनम् समासः यत्र अनेकानि पदानि न एकम् अनेकम् सो अनेकम् डस् नाट् मीन् मेनी इट् मीन्स् मोर् देन् वन् अनेकस्य पदस्य अर्थात् द्वयोः बहूनां वा एकपदी भवनम् व्हेन् दे कम् टुगेदर् टु फार्म् अ सिङ्गल् वर्ड् स एव समासः इति उच्यते सीतायाः पतिः सीतापतिः इति उच्यते सीतायाः पतिः इति विग्रहः समासस्य अर्थः येन वाक्येन अवगम्यते तद्वाक्यम् नाम सीतायाः पतिः इति पदसमूहः सः विग्रहः सीतापतिः इति समासः समस्तं पदम् द कम्बैन्ड् वर्ड् आर् द कम्पौण्ड् इस् सीतापति तत्पुरुषः समासः दिस् समास सीतापति इट्सेल्फ् इस् काल्ड् समास एण्ड् इट् हेज़् अ स्पेशल् नेम् विच् इस् काल्ड् तत्पुरुष दिस् इस् अ तत्पुरुष समास सो यू शुड् नो सम् जनरल् रूल्स् विच् are associated with samasa. Samasa cannot be done anywhere or with any two words. You can't just take two words and join them together to form a samasa. Suvantanameva samasaha iti prathamaha niyamaha. Samasa is only among subanta. Subanta namapada, whatever you call it. Suvantanameva samasaha natu tingantanam. You cannot join two tingantas together in a samasa. नवा सुबन्तेन सह तिङन्तस्य यु आल्सो केनाट् जोयिन् अ तिङन्त टु अ सुबन्त समास इस् आल्वेस् बिट्वीन् टु सुबन्त सो द नेक्स्ट् क्वश्चन् इमिडियट्लि कुम्भं करोति इति कुम्भकारः इस् वन् कामन् एक्साम्पल् विच् इस् स्प्रिङ्ग् टु मैण्ड् कुम्भम् इति सुबन्तमस्ति करोति इति तिङन्तमस्ति कथं समासः चेत् तत्रापि वस्तुतः तिङन्तेन सह समासः नास्ति Okay, the word kumbha is joined with a kridanta called kara. Okay, vigraha vakye eva karoti iti tinantam shruyate. Vastutaha samasaha kumbha iti shabdasya kara iti kridantena saha samasaha. Kridantaha is again a subanta. Kridantas are pratipadikas. Pratipadikatvat subutpatti bhavati iti subanta. So, तत्रापि तिङन्तेन सह समासः नास्ति इवन् उपपदसमास इस् नाट् अ समास आफ् सुबन्त वित् तिङन्त तत्र करोति इति तिङन्तेन सह समासः न भवति कार इति कृदन्तेनैव समासः So the general rule is Subantanam eva samasaha. There are exceptions to this. Sarve niyamaha sapavadaha ityeva vyakarana niyamaha. So there is a rule in Vyakarana which says all rules have exceptions. Satsyapi apavadaha kechana santi kintu udaharanartham khadata modata ityasti. Khadata modata iti yasyam kriyayam punah punah uchyate sa khadata modata. It is a very special samasa. Okay? It might not even be a word which you have heard, which we will see later, where there is a samasa of tingantas. Tingantayoho samasaha drishyate. Tathaiva ehi yavam ityadishu tinganta subantayo samasaha drishyate. Ehi iti tingantam, yava iti subantam. So, tinganta subantayo samasaha drishyate, but they are very, very, very limited cases. Okay? It is not even 1% of what you have in samasa. Okay? So, leaving that, the general rule is subantanameva samasaha. Supa samasyate ityeva paninina uchyate. Saha supa iti sutram, sup iti anuvrittihi, sup supa samasyate. Subantam sumantena samasyate ityeva niyamaha. Okay, so idanim prashnaha kumbhakara. Should we write them as kumbhakara means samasa is kumbhakara. The vigrahavakya we say it as kumbham karoti. But there is another kind of vigrahavakya. That is the general laukika vigrahavakya. Kumbham karoti iti laukikam vigrahavakyam iti uchyate. Achata, loke arthamagamanartham vigraha. As we said, vigraha is nothing technical. It is just something which lets you know what the vritti means. Arthamagodhanartham eva vigraha. The technical vigraha of kumbhakara would be kumbha nas kara. Kara itya shabdena sahaiva kumbha ityasya samasaha. Which we will see when we see the prakriya of samasas in detail. Tada jnayate. अपरः प्रश्नः खा किं पदं खादितोदकः सः अर्थः खादितम् उदकम् येन सह इति वा खादितमोदकः क्षम्यताम् खादितं मोदकम् येन सह खादित इस् नाट् अ तिङन्त खादित इस् अ कृदन्त क्तप्रत्ययः Sapratyantam padam kridantam tadapi subantameva. So it is a samasa. Khadita is a samasa, modaka, I mean, khadita is a subanta, modakam ityapi subantam, subantayo samasa. Tatra klesha nastyeva. Nishacharaha, nishayam charati, sarveshu upapada samaseshu tathaiva. All upapada samasas, vigrahavakya tingantam shruyate, kintu samasaha tingantena saha nasti. The samasa is not with tinganta, samasa is always with samasa is always with a kridanta or a subanta. I mean, subantanameva samasaha. Samasa iti padam asti chet kartum shakyate samasaha. It is good if you can actually eat and digest samasas also. अग्रे गच्छामः प्रथमः नियमः सुबन्तानामेव समासः इति द्वितीयः नियमः सामान्यतः युगपत् द्वयोर्द्वयोः सुबन्तयोरेव समासः समासस्य इदं वैशिष्ट्यं यत् बहूनां पदानां मेलनेन बहु दीर्घं पदं भवितुम् अर्हति इफ् यु सी ए काव्य आफ् से बाण आर् दण्डी यु सी वेर् अ सिङ्गल् वर्ड will go on for say a page. Or two or three lines may consist of a single word. Ekameva padam bhavati. Katham sadhyate tattu samskrita bhashayaha vaishishtyeshu anyatamam. It is certainly one of the very special features of Sanskrit where you can compress a lot of words and a lot of information into a small piece by making samasas. Samasam kritva kritva dirgham padam nirmatam shakyate tena padena महान अर्थः अपि बोध्यते किन्तु तत्रापि समासः द्वयोर्द्वयोरेव अ समासः एट अ टाइम कैन टेक ओनली टू वर्ड्स Okay, that is the general rule. Even if you have, say, 10 words as the component of a samasa, we always go, samasa happens step by step. It first joins two words, and then this is one word, this is joined with the third word, and so on. For example, Rajapurushagamanam ityasti. Rajan iti ekam padam, Purusha iti param padam, Agamanam iti tritiyam padam. Three padani santi. Atra katham samasaha iti pashyamaschet. Adau ragyaha purushaha rajapurushaha. Rajapurushaha, ragyaha purushaha iti padadvayam. Tasya ekapadi bhavanena, Rajapurushaha iti ekam padam utpannam. Rajapurushasya agamanam. Rajapurusha is one word, agamana is the other word. Ye anayoho samasena rajapurusha agamanam. Iti padam siddhyati. So always when you are trying to break a samasa or make a samasa, it happens in steps of 2 by 2. Sarvada, sarvadana, samanyataha, dvayodvayoreva samasaha. Asya pavadaha bhavati, dvandva samasaha. Dvandva samasetu, yugapat bahunamapi vadanam samasaha bhavati. Ramashta, Lakshmanashta, Bharatashta, Shatrughnashta. In Dvandva, you can join many things together to form a long samasa. Rama, Lakshmana, Bharata, Shatrughna. It will happen. Kintu, anyesha samaseshu, prayena. This is also a general rule. Always remember in Vyakarana, whenever something is said as a rule, it means that general rules. There are exceptions and you should always know what are the exceptions. So, prayena, atayeva sarvada, asmabhihi kimapi, you don't state anything absolutely. You always say prayaha or autsargikataya pra samanyena etc. So generally dvayo dvayo subandhaya samasaha kvachit bahunam api bhavati, but the general case is you always have to take them in twos. Samarthayoreva samasaha iti adhimaha nimaha. Samarthaha namakaha iti chete paraspara anvitayohu subandhayoreva samasaha. So, samasa can happen only when the subantas are related to each other. Yayoho dvayoho subantayoho samasaha kartum ishyate, tayoho parasparanvaye satyeva samasaha bhavati. Kaha arthaha? Ragyaha putraha rajaputraha. The son of a king. Ragyaha putraha parasparanvaye hati rajaputraha iti samasaha bhavati. Kintu, atra rajyaha putrasya parasparanvayaha asti. So there is, raja is related to putra, and putra is related to raja. Yadi parasparanvayaha nasti, tatra etayoreva parayoha samasaha na bhavati. Himudaharanam, bhavati darshanam rajyaha putraha chorasya dhavati. Iti ekam vakyam. Rajyaha darshanam bhavati. Iti saptami. As soon as he saw the king, Chorasya putraha dhavati, the son of this thief runs away. Idani, vakyasya rachanayam. As you know in Sanskrit, the words can, need not be in a fixed order. So idani, evam vakyasati, bhavati darshanam ragyaha putraha chorasya dhavati, ragyaha putraha iti asti. Can you join them to form a samasa as raja putraha? The answer is no. Kimartham? Rajyaha putrasyata parasparam anvayaha nasti. Rajyaha darshane anvayaha putrasya chore anvayaha. Chorasya putraha. So putra is related to chora. Rajyaha darshanam. The sight of the king. Rajyaha darshane anvayaha. So paraspara anvaya bhavat. Atra samasaha na bhavati. So samasa can join together only related words. Rajapadasya putrapadasya cha paraspara anvaya bhavat samasaha na bhavati iti niyamaha. Okay, if there are questions, please excuse me. There is some reason where I am not able to see the chat while the slideshow is running. So, I'll give a break between whatever sections and then I'll look at the questions and answer them together. Okay. Khadata modata iti etra ting kutra asti iti ekaha prashnaha. Khadata iti tingantam. Lotlakaraha. Khadatu khadata khadatam khadantu. Khada khadata khadatam khadata. Madhyama purushe bahuvachanam. Evam modata iti mudhatohu lotlakare madhyama purushe bahuvachanam. So both of them are tingantas. So khadata modata is a kriya in which these words are spoken again and again. It's a very special samasa. It refers to celebration or revelry. So, an occasion where these words, khadata, modata, it is eat and enjoy, these words are used again and again. Some celebration, that is referred to as khadata modata by the samasa. Okay, it's a very special samasa. Okay, what is the next question? If you don't put a comma, comma is only for bhavate darshanam ragyaha. If you comma, to kevalam avagamanartham. Comma is not used in Sanskrit. It is not there in. It is just bhavate darshanam ragyaha putraha chorasya bhavati. So whether there is a comma or not, there is no samasa. It is based on the meaning. Rajan shabda is associated with darshana and putra is associated with chora. Whether or not you pause, I mean I am giving a pause to show that it is different. Kintu tatra kyapi nasti chedapi anvayaha nasti itteva. Kimartham modata ityatra dirgha akaraha iti prashnaha samasaha. It refers to a kriya finally. Khadata, modata, iti yasyam kriyayam. So after a samasa, there has been a kri pratyaya added, which makes it a dirgha. So the prakriya, we look at it when we come to a samasa. So yeah, there is one suggestion that the problem may be with the browser. So we'll see, I mean, the initial classes we'll try to figure out how to do all the troubleshooting. Is there any other suggestions, so please. Purvapadam Uttarapadam iti padadvayam samase samanyataha upayujyate. Commonly used. It's very easy. Samastapade purvatra shruyamanam padam purvapadam, uttaratra shruyamanam padam uttarapadam. Samase krute sati yat pad purvatra shruyate tat purvapadam iti ujyate. Yat padam uttaratra shruyate tat uttarapadam. And not in the vigraha. Why it says samastapada is, when after the samasa has happened, whatever appears earlier is called the purvapada, and whatever appears later is called the uttarapada. Chorat bhayam, chora bhayam. Chora bhayam ityatra, chora iti purvapadam, bhaya iti uttarapadam. Why this is important? Because the vigraha vakya, being a vakya, it can be written the other way. Bhayam chorat ityavi vaktum shikyate. Samasastu chora bhayam ityeva bhavati, satra chora ityeva purvapadam, bhaya ityeva uttarapadam. Even if you write the vigraha as bhayam chorat, the purvapada is chora and the uttarapada is bhaya. Okay? This is because in most samasas, purvapadam idameva bhavet iti niyamaha asti. In many of the samasas, there is a rule that this, if these two words are joining, idameva purvapadam bhavet, idameva uttarapadam bhavet, iti niyamaha vidyate. So to decide, chorat bhayam iti vigrahe, bhayam chorat iti vigrahe va, him purvapadam iti nirdharam kartum, niyamaha santi. So because of that, generally the purvapada and uttarapada are fixed. Okay? Chora ityeva purvapadam bhavati asmin samase, bhaya ityeva uttarapadam. There will not be a samasa as bhaya chora or something. Rajyaha putraha rajaputraha, putraha rajyaha api rajaputraha eva. So in whichever way you write the vigraha, samasastu rajaputraha ityeva bhavati. Vivaksha samana, ataha samastam padam api samanameva bhavati. Again, this is a general rule. Harishcha harashcha hariharau. You see in a dvanda samasa. Harishcha harashcha iti hariharau iti rupam. Harashcha harishcha iti rupe iti vigrahe api hariharau ityeva rupam. The rupa is hariharau. Whatever you say the vigraha as. This is again a general rule. Kvachit ubhayata kavitum arhati. Some cases there is a possibility of having it the other way. Udaharanam. Kukkutascha mayuricha ityasti kukkuta mayuryau iti dvandva samasaha. Mayuricha kukkutascha iti samasa ekrutetu mayura kukkutau ityapi samasaha. So the samasa varies based on what you want first. Iti kvachid bhavati. There are few cases where it may vary, but in a majority of the cases the purvapada will be fixed. Prayena purvapadam samanam bhavati ityukte. पदद्वये दत्ते किं पूर्वपदं भवेत् इति निश्चयः वक्तुं शक्यः. क्वचित् उभयथा अपि भवितुम् अर्हति. चोरात् भयम् इत्येव लेखनीयं वा विग्रहः इति नास्ति. भयं चोरात् इत्यपि लेखितुं शक्यते. सो वेदर् यु रैट् इट् एस् भयं चोरात् और् चोरात् भयं, द समास इस् चोरभयम्. एवं पुत्रस्य राजा इति भिन्नम्. राज्ञः पुत्रः, पुत्रः राज्ञः, उभयत्र राजपुत्रः इति भवति. पुत्रस्य राजा इति यदि विवक्षा तदा तु पुत्रराजः इति समासः भवितुम् अर्हति. Because the vivaksha itself is different. There's the son of a king and the king of a son, they are completely different. So, tatra tu bhinnaha samasaha, tatra putra shabdaha eva purvam bhavet. Whether you say raja putrasya or putrasya raja, tada putra shabdaha eva purvam bhavet. Putra rajaha ityeva bhavet, yadi rajashaha samasaha asti. राज्ञः पुत्रः इति यदि समासः तर्हि राजपुत्रः इत्येव भवति. राज्ञः पुत्रः एण्ड् यु केनाट् चेञ्ज् द विभक्तीस् आफ् द विग्रहवाक्य. ऐ मीन् द विभक्ति चेञ्जस् द मीनिङ्ग् चेञ्जस् एण्ड् सो द समास विल् आल्सो चेञ्ज्. एस् लाङ्ग् एस् द विभक्ति इस् रिमेन् द सेम् वेदर् यु मूव् अराउण्ड् द वर्ड्स् इन् द वाक्य द समास विल् नाट् चेञ्ज् इस् वाट् ऐ मीन्. समास प्रक्रिया का भवति? हौ डज अ समास हापन् इति पश्य. सुबन्तानामेव समासः पूर्वं दृष्टम्. सो यु हेव् टु सुबन्तास्, द्वयोः सुबन्तयोः समासः इति सामान्यनियमः. समासे क्रियमाणे पूर्वोत्तरपदाभ्यां विद्यमाना सुद्विभक्तिः लुप्यते. सुबन्तं नाम किं? प्रातिपदिकं भवति, सुप् प्रत्ययः भवति, तदेव सुबन्तं. सुप् अन्ते यस्य सः सुबन्तः. The Subanta means it has a pratipadika and it has a suprateya or the vibhakti. Sitayaha patihi ityasti. Sitayaha iti ekam subantam, shashtheka vachanantam, patihi iti aparam subantam, prathamaika vachanantam. Sita iti pratipadikam, tasmat unas iti shashthi vibhakti pratyaha vidyate. In sitayaha, if you split that into prakriti pratyaya, you have a pratipadika and you have a pratyaya. Evam. पति इत्यत्र पतिः इत्यत्र पति इति प्रातिपदिकं, सु इति प्रथमाविभक्तिप्रत्ययः. सो आल्वेज् इन् सुबन्तास् यु हेव् अ प्रातिपदिक एण्ड् यु हेव् अ प्रत्यय. सो समासे कृते वेन् यु जायिन् दीस् टुगेदर् इन् अ समास, सुप् विभक्तिः लुप्यते. आल् विभक्तिप्रत्ययस् आर् डिलीटेड्. सो द समास विल् रिमेन् एस् सीता पति. प्रातिपदिके शिष्येते. ओन्ली द प्रातिपदिकास् आर् लेफ्ट् औट् to form Sitapati. This is the samasta pada, not Sitapatihi. Okay? Sitapati iti samastam pratipadikam. Now this is a new pratipadika. Just like Sita iti akarantam pratipadikam, pati iti ikarantam pratipadikam, Sitapati iti ikarantam pratipadikam. Like Hari, you have a separate word called Sitapati. Asmat samasta padat punaha subvibhakti yojyate. So just like you say ikarantaha pulingaha hari shabdaha ityukva sarvani rupani uchyante harihi hari harayaha, tathaiva ikarantaha pulingaha sitapati shabdaha sitapatihi sitapati sitapatayaha iti sarvani rupani bhavanti. Samastat padat punaha subvibhaktihi yojyate. So the vibhakti you add and the forms you get will depend on the artha, will depend on the linga and vachana of the samasta pada. It is not dependent on just the Pati Shabda. It is dependent on the Sitapati. Based on what the Sitapati means, what linga it has, what vachana it has, you will have different forms of the samasta pada. Okay? So always, purva padasya, uttara padasya cha ya vibhaktihi bhavati, sa vibhaktihi lukyate, samasta padat punaha vibhaktihi yojyate. So you cannot always retain the vibhakti of the uttara pada. An example is, you have Ramashta Lakshmanashta, it becomes Rama Lakshmanau. Pratipadikam Rama Lakshmana ityasti. Tasmata Dvivachanam, it is a Nitya Dvivachana, because there is Rama and there is Lakshmana. So you will have a form as Rama Lakshmanau, it does not become Rama Lakshmanaha. Okay. So you cannot just retain the uttara pada as it is. That is not what happens in a samasa. The pratyaya, vibhakti pratyaya of both purva pada and uttara pada are deleted and you add a new pratyaya. This is very important. You will know why as we go on with prakriya. Okay? But this is the general prakriya of any samasa. Subantam tatra pratiparikam bhav shishyate vibhaktihi lupyate. Punaha samastat padase vibhaktihi kriyate. Samasakarane yantavyaha amshahake. What are the different things which you will have to know while making a samasa?
Adav gyatavyam bhavati samasa vidhayakam shastram.
Shastram nama sutram. Kena sutrena samasa bhavati. Because samasa is not very simple in that there might be a vakya. Okay. Vakya sadhutvam bhavati. Kintu samasaha bhavet iti niyamaha nasti. Ekam udaharanam pashyamaha. Gurave dakshina ityasti. Guroho nimittam ya dakshina diyate. Tadarthe chaturthi vibhakti bhavati. Gurave dakshina iti vakyam sadhu. The sentence is correct. Kintu gurave dakshina ityatra guru dakshina iti samasaha na bhavati. You cannot join a chaturthyanta as gurave with dakshina to form a samasa called guru dakshina. Because vidhayaka shastra bhava, there is no sutra which allows you to join a chaturthyanta with dakshina shabda. Ataha guru dakshina iti samasaha sadhu. The samasta pada is correct. Gurave dakshina as a vakya is correct. But guru dakshina is not created by joining chaturthyanta gurave with dakshina. Guroho dakshina, guru dakshina, itteva samasaha. Shashtyantasya, guru iti guroho iti shashtyantasya dakshina shabdena samasaha. Natu gurave iti chaturthyantasya. So always it is very important to know what is the samasa vidhayaka sutra. Sutram vina samasaha na bhavati. Even though you feel it intuitively, even though it might feel correct, it might not be correct. Samasa cannot happen in all cases. Wherever you have a vakya, you cannot join the words together to form a samasa. Vakya yani yani padani bhavanti, ani sarvani yojayitva samasam kartum na shakyate, paraspara anvaye satyati. Even though all other rules are there, the two words are related to each other, they are both subantas, sarvam asti chedapi, samasa vidhayakam shastram vina samasaha na bhavati. The shastra, the sutra which allows for a samasa is very, very important. Okay? For example, tritiya, if you say dvitiya, shritatita patita gatatyasta prapta pannehi, iti sutra masti. Dvitiya antam, etaihi shabdaihi eva samasyate, shrita atita ityadithihi. Anyat padam asti cheta, dvitiya vibhaktyantam padam asti cheta, ti samasaha na bhavati. A dvitiya anta word will not combine with any other words. Other than those which are mentioned in the sutra. So that is why the first step in creating samasas is to know what is the specification. Shastrena kimuchyate athava sutrena kimuchyate iti adav gyatavyam. Purvapada nirnayaha. Tataha purvapadam kim bhavet. Yatha maya uktam. Kashchana vigraha asti chet. Padadvayam asti chet. Tatra kim purvapadam bhavet. Kim uttarapadam bhavet. Ityata niyamaha santi. So there are specific rules which tell which should be the Purvapada and why. Okay. So you should know those rules to make sure that you are forming a samasa correctly. So as we already saw this example, Harishcha Harashcha iti vigrahe, Harashcha Harishcha iti vigrahe eva, Harishabdaha eva Purvatra bhavati. Hari itself will be the Purvapada and samasa will be Hariharav. Kimartham evam, keke niyamaha santi Purvapadasya nirnayam kartum iti gyatavyam bhavati. Samasta padasya linga nirnayaha. Samasta padasya kim lingam bhavet. Ityapi nyatavyam. Trayanam lokanam samaharaha. Ityasti. Trishabdaha pullinge. Lokashabdaha pullinge. Kintu triloki. Iti samasta padam strilinge. Strilinge eva bhavati. Bahutra evam drishyate. Samasta padasya linga nirnayartham ketana niyamaha santi. Paravallingam dvandva tatpurushayoho iti uchyate. And yet, there are many other rules which specify what should be the linga of a samasta. So you should also know what will be the linga of the samasta pada. पूर्वपदे विशेषः भवति। पूर्वपदं किम् इति निर्णीतं, पूर्वपदं तथैव भवेत् इति नियमः नास्ति। उदाहरणार्थं दीर्घा रज्जुः इत्यस्ति, रज्जुशब्दः स्त्रीलिङ्गे, अतः दीर्घा इति विशेषणमपि स्त्रीलिङ्गे अस्ति। समासे तु दीर्घरज्जुः इति भवति, दीर्घारज्जुः इति न भवति। दीर्घरज्जुः स्त्रीलिङ्गे विद्यमानं यत् पूर्वपदं तस्य पुंवद्भावः इति वदामः। इट् बिकम्स् लैक् अ पुल्लिङ्ग, इफ् इट् वर् पुल्लिङ्ग इट् वुड् हव् बीन् दीर्घः, दीर्घ, सो इट् अस्यूम्स् द फार्म् आफ् पुल्लिङ्ग एण्ड् इट् बिकम्स् दीर्घ। दीर्घारज्जुः समासे पूर्वपदस्य विशिष्टं किमपि कार्यं दृश्यते, पुंवद्भावः इति दीर्घरज्जुः इति भवति। एवम् अन्ये नियमाः सन्ति यत्र पूर्वपदे कश्चन विशेषः दृश्यते। राज्ञः पुत्रः इत्यस्ति, तत्र प्रातिपदिकं किम्? राजन् इति नकारान्तं प्रातिपदिकं, पुत्र इति अकारान्तं प्रातिपदिकम्। सो यु हेव् अ नकार हियर्, राजन् पुत्र, द नकार गेट्स् डिलीटेड्, राजपुत्रः इति समासः। पूर्वपदे यः नकारः आसीत् तस्य लोपः भवति। सो दिस् इस् अनदर् केस् वेर् अ पूर्वपद हस् चेञ्ज् ड्यूरिङ्ग् अ समास। समासे कृते पूर्वपदे क्वचित् विशेषाः दृश्यन्ते, अतः के के विशेषाः सन्ति इति ज्ञातव्यम्। उत्तरपदे अपि विशेषाः भवन्ति, अगेन् उत्तरपद मैट् आल्सो चेञ्ज् इन् द कोर्स् आफ् अ समास। काश्याः राजा इत्यस्ति, काशी इति पूर्वपदं, राजन् इति उत्तरपदं, समस्तपदं तु काशी राजः। नकारान्तं राजन् इति प्रातिपदिकं यदासीत् तत्तु अत्र अकारान्तत्वेन सम्पद्यते। सो द नकारान्त वर्ड् राजन् has been converted into an akaranta word at the end of a samasa. We have Kashi Rajaha and not Kashi Raja. Kashi Raja iti asadhu, Kashi Rajaha iti akaranta meva bhavati. So this is a case where the uttarapada has changed in the course of a samasa. Evam sarva ratrihi iti samasaha, sarva ratraha iti samastam padam bhavati. Ratri shabdaha ikarantam asti, srilingancha asti. किन्तु समासे सर्वरात्रः इत्यत्र अकारान्तत्वमस्ति, पुल्लिङ्गत्वमपि अस्ति। इट् हस् बिकम् बीङ्ग् कन्वर्टेड् टु अकारान्त एण्ड् आल्सो पुल्लिङ्ग। सो देर् आर् डिफरेण्ट् कैण्ड्स् आफ् चेञ्जस् विच् केन् हेपन् इन् द उत्तरपद। उत्तरपदे के के विशेषाः भवितुम् अर्हन्ति इत्यपि ज्ञातव्यम्। सन्धिप्रभृतीनि कार्याणि एण्ड् देर् आर् जनरल् कार्यस् लैक् सन्धि विच् मेट् हेपन् इन् अ समास। गणानाम् ईशः इत्यस्ति, गण इति प्रातिपदिकम्, ईश इति प्रातिपदिकं, गुणसन्धिः भवति, गणेशः इति रूपम्। समासे संहिता नित्या, सो इन् अ समास यु केनाट् नाट् डू अ सन्धि। फार् सन्धि इफ् इट् इस् इन् अ जनरल् सेण्टेन्स्, फार् एक्साम्पल् तथा इति यदि पदद्वयं, यु केन् ईदर् रिटेन् देम् सेपरेट्लि एस् तथा इति आर् जायिन् देम् इन् अ सन्धि एस् तथेति। किन्तु समासे सन्धिः नित्यः, यु शुड् कम्पल्सरिलि डू द सन्धि, सो इट् हेस् टु बि गणेशः, गण ईशः इति रूपं न भवति। समस्तपदात् विभक्त्युत्पत्तिः, द लास्ट् थिङ्ग् इस् आफ्टर् यु हव् डन् आल् दिस् यु विल् गेट् द समास। यु स्टार्टेड् वित् टु वर्ड्स्, कथं समासः करणीयः, पूर्वपदे कः विशेषः, उत्तरपदे कः विशेषः, कथं पदयोर्मध्ये सन्धिः, एतत् सर्वं विज्ञाय अन्ते इदानीं समस्तपदं सिद्धम्। यु हेव् रेडी अ समस्तपद विच् इस् अ प्रातिपदिक, यु शुड् एड् अ सूटेबल् विभक्ति टु दट् प्रातिपदिक एण्ड् गेट् द रिक्वैर्ड् फार्म्। सो आल् दीस् स्टेप्स् आर् वाट् आर् टु बि स्टडीड् इन् द समासप्रकरणे। समासप्रकरणे सर्वेषाम् एतेषाम् अध्ययनं भवति, न केवलं समासस्य। इट् इस् नाट् जस्ट् ओके जायिन् राजन् अण्ड् सूत्र एण्ड् समास। That is not the only thing you will study. You will study whatever is related to all these different kinds of steps. Tattvamasi tetra kaha sandeha hu. Tasyatvamasi itinasi. Tattvamasi is tattvamasi. You are that. There are all three separate words. There is no samasa there is no sandhi, there is nothing. Tattvamasi iti. त्रीणि भिन्नानि पदानि तावदेव। द्वितीया एक्साम्पल्, द्वितीयाश्रितातीत पतितदतात्यस्त प्राप्तापन्नैः इति सूत्रमस्ति. द्वितीयान्त वर्ड् विल् कम्बैन् वित् श्रिता अतीत श्रित श्रिता अतीत पतित गत अत्यस्त प्राप्त आपन्न. देर् आर् सेवेन् वर्ड्स् विच् आर् स्पेसिफैड् इन् द समास. सो द्वितीयान्तं पदम् एभिः सप्तभिः पदैरेव समस्यते. इट् विल् जायिन् वित् ओन्ली दीस् सेवेन्. इफ् देर् इस् सम् अदर् वर्ड् यु केनाट् जायिन् अ द्वितीयान्त वित् सच् अ वर्ड्. So, samasa, just to say the samasa is very specific. It is specific to the words which have been indicated in the sutra. Sometimes it might be a general sutra, but if it is a specific sutra, the samasa is also specific and it cannot happen with just any random word. Dvayoho padayoho visheshaha. Yeah, there are cases where both purvapada and uttarapada might change. पूर्वपदस्य भिन्नाः नियमाः सन्ति, उत्तरपदस्य भिन्नाः नियमाः सन्ति. देर् कुड् बि वर्ड्स् वेर् बोत् अप्लै. ओके, विशिष्टाद्वैते तत्त्वमसि इत्यत्र तस्य त्वं तत्त्वम् इति समासः यदि अस्ति तर्हि सत्यं तत् इति प्रातिपदिकं, त्वम् इति प्रातिपदिकं. सो यु जायिन् देम् टुगेदर्. इफ् यु कन्सिडर् इट् एस् अ समास इट् कुड् बि. But tattvam then would be one word and asi would be the other word. Tattvam ityatra tasyatvam. Purvatra pratiparikam tad ityasti. Aparatra tvam ityatra yushmaditi pratiparikam. Katham tattva tvamadeshaha bhavati. After you add the vibhakti, you get the adesha, it becomes tattvam. Okay. What is the question? Niyamaha nastiva ityatra. Kaha niyamaha nastiva? गुरवे दक्षिणा गुरुदक्षिणा अपि. देन् यु टेक् षष्ठी. ऐ बीन् टेलिङ्ग् इट् इवन् इन् कारक प्रकरण. षष्ठी इस् वन् विभक्ति अण्ड् वन् समास वेर् यु डु नाट् हेव् एनी रूल्स्. सूत्र जस्ट् से षष्ठी, एनी षष्ठी अन्ता केन् कम्बैन्. सो फार् षष्ठी आल्वेस् इट्स् वेरि रिलाक्स्. विभक्ति आल्सो इन् आल्मोस्ट् एनी सेन्स् यु केन् हाव् षष्ठी विभक्ति. अण्ड् सिमिलर्ली षष्ठी समास आल्सो हेपन्स् इन् मेनी केसेस्. So what I was saying was the Chaturthi will not happen. Chaturthi Samasa has its own rules. Dvitiya Tatpurusha has its own rules. Shashti Samasa, Shashti Tatpurusha, the Sutra itself just says Shashti. That is, Shashtyanta will combine with any Subanta. Shashtyantam Samarthena Subantena Samasyate. So in case of Shashti, you cannot actually restrict many things.
Osnadaha. एनाक्षरसमाम् नायम् अधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः. वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम्. मुनित्रयम् नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयम् विरच्यते.